अथ अष्टमस्कंध अथाष्टमोध्याय समुद्र से अमृत का प्रकट होना और भगवान का मोहिनी अवतार ग्रहण करना। श्री शुक उवाच पीते गरे वृषाकेण प्रीतास्ते मर्दानवा ममंथुस्तरसा सिंधुम हविर्धानी ततो भवत तमग्निहोत्रिम ऋषयो जगृहुर्ब्रह्मवादिनः यज्ञस्य देवयानस्य मिध्याय हविषे नृप तत उच्च श्रवा नाम हयोभूत चंद्र पाण्डुर तस्मिन् बलि स्पृहां चक्रे नेन्द्र ईश्वर शिक्षया तत ऐरावतो नाम वालनेन्द्रो विनिर्गत दन्तश्चतुर्भिः श्वेताद्रैर्हरन् भगवतो महिम् कौस्तुभाख्यमभूद्रत्नम् पद्मरागो महोदधे तस्मिन् हरिस्पृहां चक्रे वक्षोलङ्करणे मणौ ततो भवत् पारिजात सुरलोक विभूषणम् पूरयत्यर्थिनो योऽर्थे शश्वद्भुवि यथा भवान् ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः रमण्यः स्वर्गिणम् वल्गो गतिलीलावलोकनैः ततश्चाविरभूत् साक्षात् श्रीरमा भगवत्परा रञ्जयन्ति दिशः कान्त्या विद्युत् सौदा मणियथा तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवः रूपौ दार्जवयो वर्ण महिमा क्षिप्त चेतसः तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् मूर्तिमत्यः सरित् श्रेष्ठा हेमकुम्भैर्जलम् शुचि आभिषेचनिका भूमि राहरत् सकलौषधि गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ऋषयः कल्पयाम् चक्रुरभिषेकम् यथाविधि जगुर्भद्राणि गन्धर्वा नट्यश्च नन्तुर्जगुः मेघा मृदङ्गपणव मुर्जानक गोमुखान् व्यनादयत् शङ्खवेणु वीणास्तुमुलनिःस्वनान् ततोऽभिशिष्युर्देवीम् श्रियम् पद्मकरां सतीम् दीघा पूर्णकलशै सुक्तवाक्यैर्द्विजैरितैः समुद्रः पीतकौशेय वाससे समुपाहरत् वरुणः स्रजम् वैजयन्तीम् मधुना मत्तषट्पदाम् भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः हारम् सरस्वती पद्मम् अजो नागाश्च कुण्डले ततः कृतस्वस्तेनोत्पलस्रजम् नदद्विरेफाम् परिगृह्य पाणिना चचाल वक्त्रम् सुखपोलकुण्डलम् सब्रीणहासम् दधति सुशोभनम् स्तनद्वयम् चातिकृशोदरी समम् निरन्तरम् चन्दनकुङ्कुमक्षितम् ततस्ततो नु पुर्वल्गुशिञ्जितैर्विसर्पति हेमलते वसा बभौ विलोकयन्ति निर्वद्यमात्मनः पदम् ध्रुवम् चाव्यभिचारि सद्गुणम् गन्धर्वजक्षासुरसिद्धचारणत्रैविष्टपेयादिषु नान्वबिन्दत नूनम् तपोजस्य न मन्नि निर्जयो ज्ञानम् क्वचित्तच्छनसङ्गवर्जितम् कश्चिन्महांस्तस्य न काम निर्जयः स ईश्वरः किम् परतो व्यपाशयः धर्मः क्वचित्तत्र न भूतसौहृदम् त्यागः क्वचित्तत्र न मुक्तिकारणम् वीर्यम् न पुंसोऽस्त्यज वेगनिष्कृतम् न हि द्वितीयो गुणसङ्गवर्जितः क्वचिच्चिरायुर्न हि शीलमङ्गलम् क्वचित् तदप्यस्ति न वेद्यमायुषः यत्रो भयम् कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन काङ्क्षते इमाम् एवम् विमृश्या व्यभिचारि सद्गुणैर्वरम् निजैकाश्रयता गुणाश्रयम् बब्रे वरम् सर्वगुणैरपेक्षितम् रमा मुकुन्दम् निरपेक्षमीप्सितम् तस्यांस देशौषतिम् नवकञ्जमालाम् माद्यन् मधुव्रतबरूथ गिरोपघुष्टाम् तस्थौ निधाय निकटे तदुरः स्वधाम सब्रीडहास विकसन्नयनेन जाता तस्याः श्रियस्त्रिजगतो जनको जनन्या वक्षो निवासमकरोत् परमम् विभूतेः श्री स्वः प्रजः सकरुणेन निरीक्षणेन यत्र स्थितै धयत साधिपति स्त्रीलोकान् शङ्खतुर्यमृदङ्गानाम् वादित्राणाम् पृथुष्वनः देवानुगानाम् स्वस्त्रीणाम् नृत्यताम् गायताम् अभूत्। ब्रह्मरुद्रांगिरो मुख्या सर्वे विश्वसृजो विभुम ईडिरे वित्थैर्मन्त्रैस्तल्लिंग पुष्पवर्षिणः श्रिया विलोकिता देवा स प्रजापतयः प्रजा शिलादिगुण संपन्ना लेभिरे निर्वृतिम् पराम् निसत्त्वा लोलुपा राजन् निरुद्योग्याः तत्रपः जदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्य दानवः अथासिद् वारुणी देवी कन्या कमललोचना असुरा जगृहुस्ताम्बये हरेरनुमतेन ते अथो दधिर्मथ्यमानात् काश्यपैरमृतार्थिभिः उदतिष्ठन् महाराज पुरुषः परमाद्भुतः दीर्घपीवर्दोर्दण्डः कम्बुग्रीवोरुणेक्षणः श्यामलस्तरुणः श्रग्वी सर्वाभरणभूषितः पीतवासामहोरस्क सुमृष्टमणिकुण्डलः स्निग्धकुञ्चित्केशान्तः सुभगः सिंहविक्रमः अमृतापूर्णकलशम् बिभ्रद्बलयभूषितः सवै भगवतः साक्षात् विष्णोरंशांशसम्भवः धन्वन्तरी रीति ख्यात आयुर्वेद दृगिज्यभाक् तमालोक्यासुरा सर्वे कलशम् चामृताभृतम् लिप्सन्तः सर्ववस्तूनि कलशम् तरसाहरन् नीयमाने सुरेर्तस्मिन् कलशे अमृतभाजने विषाणमनसो देवा हरिम् शरणमाययुः इति तद्दैनमालोक्य भगवान् भृत्यकामकृत् माखिद्यत मिथोर्थं वः साधयिष्ये स्वमायया मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् अहम् पूर्वमहम् पूर्वम् न त्वम् न त्वमिति प्रभो देवः स्वम्भागमर्हन्ति यतुल्यायासहेतवः सत्रजाग इव तस्मिन्नेष धर्मः सनातनः इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सरः दुर्बलाः प्रबलान् राजन् गृहीत कलशान् मुहुः इतस्मिन्नन्तरे विष्णुः सर्वोपायविधीश्वरः योऽसिद्रूपमनिर्देश्यम् दधार परमाद्भुतम् प्रेक्षणीयोत्पलश्यामम् सर्वावयवसुन्दरम् समानकर्णाभरणम् सुकपोर्णोन्नशाननम् नवयौवन्यनिवृत्तस्तनभारकृशोदरम् मुखामोदानुरक्तालीझङ्कारो द्विग्नलोचनम् बिभ्रत्स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् सुग्रीवकण्ठाभरण सुभुजाङ्गदभूषितम् विरजाम्बरसंवितनितम्बद्वीपशोभया कञ्च्या प्रबिलषद्बल्गुचलच्चलन्नूपुरम् सबीर्डस्मितविक्षिप्त भ्रूविलासावलोकनैः दैत्यजूत्थपचेतसु काममुद्दीपयन्मुहुः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायाम् अष्टमस्कन्धे भगवन् मायोपलम्भनम् नामाष्टमोऽध्यायः।